एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक चन्द्रकान्त पौडेल नेपाली कांग्रेस दलस्य नवीन नेतृत्वाय सभापतौ षणां जनानां प्रत्याशिता प्रस्तुता वर्तते। सभापते प्रधानमन्त्रिणा वर्तमान सभापतिना च शेरबहादुर देउवाभिधेन, नेतृभिः डाक्टर शेखर कोइरालाभिधेन, प्रकाशमान सिंहेन, विमलेन्द्र निधिना, कल्याण गुरूङ इत्यनेन, युवराज न्यौपानेभिधेन च प्रत्याशिता पञ्जीकारिता वर्तते। दलस्य उपसभापति पदाय पूर्णबहादुर खड्का, विजय कुमार गच्छदार, डाक्टर चन्द्र भण्डारी, धनराज गुरूङ, सुजाता कोइराला, महेश आचार्य, दिव्येश्वरी साहस चेती नेतृभिः प्रत्याशिता प्रस्तुता वर्तते। महामन्त्री पदाय गगन कुमार थापा, प्रदीप पौडेल, विश्वप्रकाश शर्मा, डाक्टर मिलिन्द रिजाल, डाक्टर प्रकाश चरण महत, डाक्टर राजाराम कार्की चेती जनानां प्रत्याशिता पञ्जीकारिता वर्तते। एवमेव सहमहामन्त्री पदाय 27 जनानां प्रत्याशिता पञ्जीकारिता स्थिति। नेपाली कांग्रेस दलस्य केन्द्रीय निर्वाचन समितेः संयोजकः गोपाल कृष्ण घिमिरे अज्ञापयत्। नेपाली कांग्रेस दलस्य संशोधित विधानस्यानुसारेण दलस्य केन्द्रीय कार्य समितेः पदाधिकारिणां मध्ये एकस्य सभापतेः, द्वयोः उपसभापत्योः, महामन्त्रीद्वयस्य, अष्टानां सहमहामन्त्रिणां च निर्वाचनस्य व्यवस्था वर्तते। दलस्य विधाने पदाधिकारिणः सदस्याश्चेति कृत्वा 34,00,000 जनानां निर्वाचनस्य व्यवस्था वर्तते। विधानस्यानुसारेण केन्द्रीय सभापतिना 33 जनानां मनोनयनं विधीयते। दलस्य कोषाध्यक्षस्य निर्वाचित केन्द्रीय सदस्यानां मध्यतः निर्वाचनस्य व्यवस्था स्थिति नेपाली कांग्रेस दलं ज्ञापयति। नेपाली कांग्रेस दलस्य केन्द्रीय निर्वाचन समित्या गतदिने पूर्वाह्नस्य 10 सायं 5 यावत् मनोनयन पञ्जीकरणाय समय निर्धारित आसीत्। समित्या निर्धारिताया निर्वाचन कार्यतालिकाया अनुसारेण मनोनयनं प्रत्यावर्तयितुम् इच्छुकैः प्रत्याशिभिः अद्य पूर्वाह्नस्य 11 यावत् प्रत्याशिता प्रत्यावर्तयितुं शक्यते। अद्य मध्याह्नस्य 12 प्रत्याशिनाम् अन्तिमनामावलिः प्रकाश्यते। श्वः प्रातः 8 नवीन नेतृत्वस्य चयनाय मतदानं भविता। प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देउवा आगामी निर्वाचने दलाय बहुमतं दापयितुम् आत्मना सभापते प्रत्याशिता प्रस्तुतीति तर्कयति। नेपाली कांग्रेस दलस्य 14 महाधिवेशने सभापते प्रत्याशितायाः प्रस्तुतेरनन्तरं यः संचारकर्मिभ्यः प्रतिक्रियां ददत्, सभापतिः देउवा स्वनेतृत्वेन राष्ट्रं निर्वाचनं प्राप्तं सत् दलस्य बहुमतं आगमिष्यतीति विश्वासम् अदापयत्। असौ सभापतेः निर्वाचने आत्मना प्रथमचरणे एव विजयो लप्स्यते इत्यभाषत। सभापतेः अपर प्रत्याशी डाक्टर शेखर कोइराला अवदत्, देशस्य परिस्थितिं दलाभ्यन्तरावस्थां च सुधर्तुं नवीन चिन्तनेन विचारेण च कार्यक्रमान् प्रस्तुत्य अग्रे वर्धते। सभापतेः अपर प्रत्याशी प्रकाशमान सिंह अवदत्, दलस्य विधिसंगतं संस्थागतं च सुदृढीकरणं विधास्यते। पूर्वमहामन्त्री कृष्णप्रसाद सिटौला पदात् बहिः स्थित्वापि कांग्रेस दलाय सहयोक्तुं शक्यते इति मान्यतायाः अनुरूपं प्रत्याशिता न प्रसूता एवम् आत्मना दलसभापते देउवाभिधेयाय एतदीय समूहाय च सहयोग समर्थने विहिते इति अज्ञापयत्। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की मतदातृभिः विवेकस्य सहमतेश्च आधारेण नेतृत्वं चेष्यते इति विश्वासम् अभिव्यनक्। गृहमन्त्री बालकृष्ण खाण प्रधानमन्त्रिणे देउवाभिधेयाय पुनः दलसभापतये निरन्तरता प्रदानाभियाने आत्मभिषितमिति प्रतिक्रियां प्रादात्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलेन आत्मना दलस्य 14 महाधिवेशने नेतृत्वस्य प्रतिस्पर्धायाः पृथक्भूतम् इति उद्घुष्टं वर्तते। दलस्य महाधिवेशनं न केवलं व्यक्तेः चयनाय अपितु अनेन स्पष्टनीतेः योजनायाः एकतायाश्च सन्देशः प्रदातव्य इति चर्चयन्, वर्तमान समये दृष्टायाः परिस्थितेः कारणेन आत्मना नेतृत्वाय प्रतिस्पर्धा न विहिता इति नेत्रा पौडेलेन उद्घुष्टं वर्तते। यो विज्ञप्तिं प्रकाश्य वरिष्ठ नेता पौडेलः दलस्य कार्यकर्तृन् महाधिवेशन प्रतिनिधीन् च दलं सुदृढं सबलं एकताबद्धं च विधातुम् एकीभवितुम् अनुरोधत्। नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन आगामी निर्वाचने माओवादी केन्द्रस्य प्रथमदल सम्पादनत्वेन परिचालिताः भवितुम् सर्वे नेतारः कार्यकर्तारश्च निर्दिष्टाः सन्ति। सप्तपदेश सम्मेलनानि, द्वे भौगोलिकेतर सम्मेलने च श्रव्यदृश्य प्रविधेर्माध्यमेन यः उद्घाटयन् अध्यक्षः प्रचण्डः अवदत्, जनतायां विश्वासे उद्भाविते सति नेकपा माओवादी केन्द्रं प्रथमं दलं भविष्यति। अध्यक्षः प्रचण्डः संविधानेन स्थापितेन संघीय लोकतान्त्रिक गणतन्त्रेण परिलक्षितान् वर्ग क्षेत्र स्तर समुदायान् एकीकृत्य एकाधिकार धनसञ्चयवादस्य विरुद्धे संघर्षं कर्तुं बलं प्रादात्। कार्यक्रमे नेता नारायण काजी श्रेष्ठ दलस्य क्रान्तिकारी रूपान्तरणाय पुनर्घटनाय च तत्कालम् आवश्यकता स्थिति स्पष्टीकृतवान्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली आगामी निर्वाचने विजयस्य सुनिश्चयनत्वेन कार्येषु प्रवृत्ता भवितुं दलस्य नेतृन् कार्यकर्तृन् च निर्दिशति। भक्तपुरे ह्यः प्रारब्धे दलस्य केन्द्रीय समितेः उपवेशे अध्यक्ष ओली आगामी निर्वाचने दलस्य विजयस्य सुनिश्चयनस्य कार्ये ध्यानं केन्द्रीकर्तुं सर्वाः दलपंक्तिः अनुरुणत। इति समाचारः।